श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथ त्रिंशोऽध्यायः श्रीशुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः अतप्यं स्तमचक्षाणाक् करिण्य इव यूथपम् गत्यानुरागस्मितविभ्रमीक्षितैर्मनोरमालापविहारविभ्रमैः आक्षिप्तचित्ताः प्रमदारमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः असावहन्त्वित् यबलास्तदात्मिका न्यवेदिषुक् कृष्णविहारविभ्रमाः गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषौ वनस्पतीन् दृष्टो वः कच्चिदश्वत्थप्लक्षण्यग्रोधनो मनः नन्दसूनुर्गतो रुत्वा प्रेमहासावलोकनैः कच्चित्कुरबकाशोकनागपुन्नागचम्पकाः रामानुजो मानिनीतामितो दर्पहरस्मितः कच्चित्तुलसिकल्याणि गोविन्दचरणप्रिये सहत्वालिकुलैर्बिभ्रदृष्टस्ते ते प्रियोच्युतः मालत्यदर्शिवः कच्चिन्मल्लिके जातियूथिके प्रीतिवो जनयन्यातः करस्पर्शेन माधवः चूतप्रियालपनसासनकोविदार जम्बर्कबिल्वबकुलाम्रकदम्बनीपाः येन्ये परार्थभवका यमुनोपकूलाश् शंसन्तु कृष्णपदवीं रहितात्मनान्नः किं ते कृतं क्षितितपो बत केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि अप्यङ्घ्रिसम्भवरुक्रमविक्रमाद्वा आहो वराह वपुषः परिरम्भणेन अप्येण पत्न्युपगतः प्रिययेह गात्रैस्तन्वन्दृशां सखि सुनिर्वृतिमच्युतो वः कान्ताङ्गसङ्गकुचकुङ्कुमरैजितायाक् कुन्दस्रजत् कुलपतेरिहवातिगन्धः बाहुं प्रियां स उपधाय गृहीत पद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः अन्वीयमान इह वस्तरवः प्रणामं किंवाभिनन्दति चरन् प्रणयावलोकैः पृच्छते मालता बाहूनप्याश्लिष्टा वनस्पतेः नूनं तत्करजस्पृष्टा बिभ्रद्युत्पुलकान्यहो इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः लीला भगवतस्तास्ता यनुचक्रुस्तदात्मिकाः कस्याश्चित्पूतनायन्त्याः कृष्णायन्त्यपि वत्स्तनं तोकायित्वा रुदत्यन्या पदाहै चकटायतीम् दैत्यायित्वा जहारान्यामेका कृष्णार् भभावनां रिङ्गयामासकाप्यङ्घ्री कर्षन्ती घोषणस्वनैः कृष्णरामायिते द्वे तु गोपयन्त्यश्च काश्चन वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् आहूय दूरगा यद्वत्कृष्णस्तमनुकुर्वतीं वेणुं क्वणन्तीं क्रीडन्ती मन्याशं सन्ति साध्विति कस्याञ्चित्स्वभुजन्यस्य चलन्त्याः परानु कृष्णोऽहं पश्यत गतिल्ललितामिति तन्मनाः मा भैष्टवातवर्षाभ्यां तत्राणं विहितं मया इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् आरुह्यैकापदाक्रम्य शिरस्याः परान्नृप दुष्टा हे गच्छ जातोऽहं खलानान्ननुदण्डद्रु तत्रैकोवाच हे गोपादावार्णिं पश्यतोल्बणं चक्षूंष्याश्वपिदध्वंगो विधास्ये क्षेममयीजसा बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले भीता सुदृक्पिधायास्यं भेजे भीति विडम्बनम् एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् व्यचक्षतवनो देशे पदानि परमात्मनः पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योग्रतो बलाः वद्वाः पदैः सुप्रुक्तानि विलोक्यार्ता समब्रुवन् कस्याः पदानि चैतानि यातायानन्दसूनुना अंसं यस्तप्रकोष्ठायात् करिणोः करिणा यथा अनयाराधितो नूनं भगवान् हरिरीश्वरः यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः यान् ब्रह्मेशो रमा देवी ददुर्मूर्ध्न्यघनुत्तये तस्या अमूनिनः क्षोभं कुर्वन्त्युच्चैः पदानि यत् यैकापरुत्य गोपीनां रघुभुङ्क्ते च्युताधरम् न लक्ष्यन्ते पदान्यत्र तस्यानूनं तृणाङ्कुरैः खिद्यत्सुजाताङ्घ्रितला मुन्निन्ये प्रेयसीं प्रियः इमान्यधिकमग्नानि पदानि वहतो वधूं गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना अत्र प्रसूना वचयः प्रियार्थे प्रेयसा कृतः प्रपदाक्रमणे ते पश्यता सकले पदे केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् तानि चूडयता कान्ता मुपविष्टमिह ध्रुवम् रेमे तया चात्मरत आत्मा रामोऽप्यखण्डितः कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः यां गोपीमनयत् कृष्णो विहायान्यास्त्रियो वने सा च मेनी तदात्मानं वरिष्ठं सर्वयोषितां हित्वा गोपीः कामयाना मामसौ भजते प्रियः ततो गत्वा वनोद्देशं नृप्ता केशवमब्रवीत् न पारयेहै चलितुन् नयमायत्र ते मनः एवमुक्तः प्रिया माह स्कन्ध आरुयतामिति ततश्चान्तर्दधे कृष्णः सावधूरन्वतप्यत हानाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज दास्यास्ते कृपणाया मे सखी दर्शय सन्निधिम् अन्विच्छन्त्यो भगवतो मार्गं गोप्यो विदूरतः ददृशुः प्रियविश्नेष मोहितां दुःखितां सखीं तया कथितमाकर्ण्यमानप्राप्ते च माधवात् अवमानै च दौरात्म्याद् विस्मयं परमैययुः ततो विशन्वनै चन्द्रज्योत्स्नायावद्विभाव्यते तमः प्रविष्टमालक्ष्य ततो निववृतुस्त्रियः तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः तद्गुणानेव गायन्त्यो नात्मा गाराणि सस्मरुः पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः समवेता जगुःकृष्णन् तदा गमनकाङ्क्षिताः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां कृष्णान्वेषणन्नाम त्रिंशोऽध्यायः ॐ सर्वं श्रीकृष्णार्पणमस्तु।